दिण्डिनकं सूपं सन्ध्याकाले आम्रसः पिबन्ति, रात्रि रोटिका शाकं खाद्यन्ति, ग्रीष्मकाले मम गृहे आम्रं बहु रूपाणि खाद्यन्ति.
तावदेव वा? हा सम्यक् भगिनि, उत्तमम्. अनन्तरम् इतोपि मधुरिका भगिनी.
Can I go? This is Sambhashanam Mata and Putri. Mata, Suryodayaha Uttishtati Putri. Putri, Dasha Nimeshaha Agachami. Mata, Chayam
Dasha Nimeshaha Agachami.
Sorry?
Dasha Nimeshaha Agachami.
निमिषेषु
बहुवचनं.
चायं पिबति, पिष्टकं खादति, अनन्तरम् अल्पहारे पाकं पचामि. नारिकेलस्य चट्नी दोशा करोति. पुत्री आगच्छति.
करोमि. ओ अम्बा करोति वा?
हा
अस्तु.
पुत्री आगच्छति, दोशा चट्नी खादति. माता
दोशा नास्ति, दोसा एव. दोसा.
माता अद्य चट्ने लवणं न ददाति, विस्मरति वा?
न दत्तवती. चट्नी उपचेषणम्. उपचेषणे लवणं नास्ति, विस्मृतवती वा?
How to ask why, how you have not put the salt?
Kimartam na sthapitavati?
Sthapitavati. Sthapanamani means putting.
Ekanisham. Esha vadati anantram vadam. Continue karato, Shri Bhagini. Lakshmi Bhagini.
Madhyanam. भोजनं नो दट्स् आल् दट्स् आल् ऐ
थिङ्क्
ऐ हेव् मिक्स्ड् टु कान्वर्सेशन् नो दट्स् आल्
ओके लवणं न स्थापितवती अनन्तरं तावदेव अस्तु इदानीं न योजितवती अपि लवणं न योजितवती न स्थापितवती अपि लवणं उपचेषणे लवणं नास्ति. अनन्तरं कः भवतः सर्वे?
किं मधुरिका भगिनी हेविङ्ग् सम् प्रोब्लम् विथ् हर् माइक्?
हेलो हेलो Namaste ma'am, can you hear me?
Namaste, yeah, yeah.
Hello. Okay, I have a small... Mama Amba Swadisht Vyanjanam Pachayati. Mama Putra Mama Amba Samana Vyanjanam Khaditum Ichhati. Aham Vyanjanam Rotika Payasam Cha Paktavati. परन्तु व्यञ्जनं किञ्चित् कटु अस्ति, मम अम्बा समान स्वाद नास्ति. पायसं मधुरम् अस्ति, मधुरं च सन्ति. सर्वे सर्वे खादतु सन्तोष्ट अनुभवति. I want to say that nobody, I want to say nobody can cook like your mom, but I don't know how to put it in words.
Mama mata sadrisham sadrisham tikte equal to her.
Okay,
so kofi na paktum shaknunt shaknunti
shaknunti. That is it, that's all.
Samyak bhavati anantra sarve abhavata सर्वेषां. शैला भगिनी.
भगिनी अहम् अद्य एव आगतवती, अहं न जानामि.
चिन्ता मास्तु, अहं परिचयं कर्तुं कारितवती. अद्य शैला भगिनी इति अस्ति, एषा प्रवेशा कृतवती, मम परिचयकक्षार्थम् आगच्छति, अत्रापि सम्भाषणार्थम् अहम् आगन्तुम् उक्तवती. अनन्तरम् इतोपि एकः अजय् महोदयः वा. हरि ओम्, इतोपि एकः अस्ति खलु. वन् मोर् पर्सन्, समन् जायिन् टुडे.
कोऽपि
महोदय, अजय् महोदय
अस्मि.
खलु यु हव् जायिन्ड् टुडे रैट्, आर् मे बि वन् मोर् सेशन् यु वेर् देर्.
ऐ वास् देर् प्रीवियस् सेशन्स्.
अस्तु, हा अस्तु महोदय, डोण्ट् वरि.
ओके, ऐ हेवन्ट् डन् द होम्वर्क्.
नो प्राब्लम्, इट्स् ओके. अस्तु, हा अस्तु, इदानीं सम्भाषणविषयं बहु सम्यक् कृतवन्तः सर्वे. सर्वे सिद्धतां कृत्वा आगतवन्तः. एवं लघु सम्भाषणं पर्याप्तं प्रारम्भस्तरे, ऐ मीन् स्टार्टिङ्ग् प्लेस्. जस्ट् यु नीड् टु नो हौ टु मेक् अ सेण्टेन्स्, फार्म् अ कन्स्ट्रक्ट् अ सेण्टेन्स्. दट् वास् मै एक्स्पेक्टेशन्. यु आल् डिड् वेल्, वेरि वेल्. मम सन्तोषम् अस्ति, अहं सन्तुष्टा अस्मि. अस्तु, भवन्तः किमपि फीड्बेक् अस्ति वा, किमपि वक्तुम् इच्छति वा सम्भाषणविषये? एनिवन् वाण्ट्स् टु शेर् एनिथिङ्ग्?
ऐ हव् वन् फीड्बेक्.
वै
इस् इट् दट् समटैम्स् यु इन्सिस्ट् दट् नो दि टेन्स् शुड् बि पास्ट् but not in the present.
Ha, kim tikte evameva abhyasam bhavati. Aham kyaha, I do yesterday, how it looks, how it sounds. I go to the temple yesterday, how it sounds like. Do you feel it is still correct? If I say, I go to the temple yesterday.
I went to temple yesterday, that's true.
Ah, saman. Sanskriti api.
No, no, my question is not that. My question is, when we have a conversation, last time I remember, I used present tense, but you said it is better that if you had used past tense, you know, instead of present tense. And today also you told someone, I don't know who it is, that better to use past tense instead of present tense. So that was my question, why like that?
See, the same way, that's what I told, no, in English, if I say, I tell this to you yesterday, what do you feel? What kind of feeling you get? If I say, I tell this to you yesterday, is that the correct tense in English?
No, not in English, but in Sanskrit, if you use the present tense.
No, the language is same, right? I mean, the meaning, it should convey the same thing, right? Aham chaha, hyaha mandiram gachati iti vadami chet. How do you get that? Aham hyaha mandiram gatavati eva, correct. When you have a proper kalahasti, the tense is there. then we should use the same tense, right? When you do the sambhashanam, then it is okay. You can say, aham agachami, tishtatu, evam, present and samyak. But, adhya sayam, idhanim sayam kalam asti, aham madhyana bhojana vishyam, prataha bhojana vishyam, edha sambhashanam karomi, tatra bhuta kalam eva samyak kalo, today I cooked, I did this.
Mm.
That is the correct tense, no? So why you have to use I cook, afternoon I cook maduram? That does not sound good, no?
Mm-hmm.
We have the proper tenses.
Mm-hmm.
So it's better than we have done. Vayam patitavantaha. Bhutakala prayogam, bhavishyakala prayogam, vayam patitavantaha. So it is better to use the proper tense.
Okay. Astu.
So otherwise it won't convey the actual meaning. Aham karomi, yaha aham दूरवाणीं करोमि इति वदति चेत् तत् सम्यक् नास्ति खलु. अहं कृतवान् एव सम्यक्, ह्यः अहं कृतवान् एव सम्यक्. मेबि वेन् यु गो लिटल्, वेन् यु हेव् मोर् इन्ट्रोडक्षन्, वेन् यु लिसन् मोर्, यु विल् नो देट् हौ इट् सौण्ड्स् बिट्वीन् यूसिङ्ग् अ प्रापर् टेन्स् अण्ड् सिम्प्लि यूसिङ्ग् प्रेसेण्ट् टेन्स् फार् एव्रिथिङ्ग्.
अस्तु
अस्तु. भवतः मित्रं कोऽपि आगच्छति इति उक्तवान् खलु, मित्रः
मित्रः हि ट्राइड टु टाइम्स, आई थिंक हि फेल्ड, सो आई डोंट थिंक हि इज जॉइनिंग. आई थॉट आई विल गेट सम कंपनी बिकॉज़ दे आर ऑल फीमेल्स, नो आई एम द ओनली मेल, बट नाउ आई वजय मोदे.
नो प्रॉब्लम
अरविंद. हेलो, I have a doubt. Just now you said, like whenever we say madhyanah bhojanam, then we should say in past tense. So if I have to say, because I made this mistake, I'm sure.
No, chinta mastu, sarve krutavantah.
But I want to correct myself. If I'm saying madhyanah aham pratidinam soopam eva khadami khadavativa.
तत्र सम्यक् प्रश्नः सम्यक्. वेन् यू से इट् इस् एव्री डे इन् एनी लाङ्ग्वेज्, फार् एक्साम्पल् एव्री डे ऐ गेट् अप् अट् 6 o'clock, तत्र वयं भूतकालं न उपयोगं कुर्मः खलु. ऐ डोण्ट् से एव्री डे ऐ गाट् अप् अट् 6. वेन् इट् इस् अ हेबिट् प्राक्टीस् आफ् गेटिङ्ग् अप् अट् 6 o'clock एव्री डे, देन् ऐ शुड् यूस् अ सिम्पल् प्रेसेण्टेन्स्.
Okay, then it is khadami is correct, isn't it?
Kaa, pratidinam aham ye madhyanam eva khadami.
Okay.
Madhyanah pullinga shabdah. Atra karma padam yada agachati, tatra madhyanam iti agachati. Ramam.
So aham pratidinam madhyanam soopam eva khadami.
Tatra api soopah pullingam punah. कर्मपदम् अतः सुपम् इति आगच्छति.
सुपम्
सुपः पुल्लिङ्गशब्दः एव.
सुपम् ऐ हेव् रिटन् सुपम् बट् ऐ एम् रीडिङ्ग् सुपः, ऐ डोण्ट् नो
वै. करेक्ट्, सुपम् एव उक्तवती, बट् ऐ एम् टेलिङ्ग् यू द रीज़न्. सुपः पुल्लिङ्गशब्दः, द्वितीयाविभक्तिप्रयोगं सुपम्. अस्तु,
धन्यवादः.
अनन्तरं प्रश्नाः सन्ति वा
भगिनि? For dal, dal.
Drishtva vadami.
Okay.
I will see. Drishtva vadami.
Mahodaya. I have a doubt, Mahodaya. While making sentences, you are asking that, and according to the kalaha, we have to use the tense, you know, not always the sentence. See, as I am telling the sentence, whether it is right using present tense or vartamana kala. Pakam kartum samayam. Mama putra mama sakayam karoti or karishyati.
Pratidinam karoti va, ekadinam eva va.
Pakam kartum, I am not using the word pratidinam.
No. Is it pandit or every day?
Whenever I request for फॉर हेल्प मम पाकं कर्तुं समय
देन करोति
करोति इज राइट और करिष्यति
करोति एव अस्ति
ओके परन्तु मम पतिः किञ्चित् कालं तिष्ठतु इति वदति वदिष्यति वदति सर्वदा
यदा सर्वदा प्रतिदिनं रोटीन् वर्क् तत्र प्रसेण्टेन्स् एव
ओके
फार् एक्साम्पल् प्रतिदिनं मम पुत्रः विद्यालयं गच्छति तत्र गच्छति एव सम्यक् यदा एक विषयं वदति तत्र एव कालः आगच्छति एकदिनस्य विषये अनन्तरं प्रश्नः इव
ma'am in the charts that you have shared everything is self explanatory but for the chart where there are those cooked items can we just go through it once collectively
okay khadya peya vastuni va
aam
astu ekavaram karomi sarvesham krite asti va
आं भगिनि
यु आल् हेव् इट् इन् हेण्ड् वाट्सप् केन् यु ओपन्
आं
भगिनि सो प्रथमम् अन्नम् अस्ति तत् सर्वे जानन्ति अत्र अन्नं द कुक्ड् वन् तण्डुलम् इस् द अन्कुक्ड् रैस् तण्डुलम् इति अस्ति अनन्तरं कोऽपि ओदनम् इति उक्तवन्तः जनरलि ओदनम् इस् मिक्स्ड् रैस् इफ् यु मिक्स् संथिङ्ग् दधि ओदनम् इफ् द रैस् इस् मिक्स्ड् वित् संथिङ्ग् एल्स् देन् इट् इस् काल्ड् ओदनम् अनन्तरं सूपः अस्ति सूपः सर्वे जानन्ति सूप् रोटिका अस्ति चपाति शाकं किमपि शाकम् एनि वेजिटेबल् शाकं दधि जानाति दधि कर्ड् तक्रं बटर् मिल्क् क्षीरं मिल्क् अनन्तरम् अहं वदामि घी सर्वमस्ति अवलेहः पिकल् पर्पटं जानन्ति सर्वे पापड् दोशा अस्ति परन्तु दोशा नास्ति अत्र किमपि स्पेलिङ्ग् मिस्टेक् इति अहं मन्ये एतत् दोसा एव दोशा नास्ति
दोशा
अनन्तरं क्वथितं क्वथितं जनरलि द वेल् कुक्ड् जनरलि वि कुक् साम्बार् मोर् क्वथितं साम्बार् क्वथितं इक् इक् क्वथितम् अनन्तरं शाल्यपूपः इड्लि शाल्यपूपः पू आक्चुलि दीस् आर् आल् द लेटेस्ट् अप्डेट् फर् मेनी थिङ्ग्स् दे हेव् ऐडेण्टिफैड् न्यू वर्ड्स् विच् इट् वुड् हव् नाट् बीन् देर् अर्लियर् दिस् इस् अ न्यू एडिशन् सो देर् आर् मेनी चेञ्जस् ऐ कुड् सी बिट्वीन् द वर्ड्स् एण्ड् दे हेव् अप्डेटेड् अकार्डिङ्ग् टु दिस् हौ वि यूस् एव्रि डे अनन्तरम् उपस्करः रसम् अनन्तरं पक्ववाटकं किं सण्डिगे
महोदय उपस्करः मत्लब् रसम् इट् इस् आल्सो काल्ड् सारः नो
आं सारः संवायः केसरि पुडिङ्ग् एनि पुडिङ्ग् दधिवाटकं दहिवडा एतत् सर्वं नूतनं सम्पावः समोसा सम्पावः निष्पावरोटिका निष्पाव मीन्स् आल्रेडि कुक्ड् आर् बेक्ड् सम्थिङ्ग् लैक् दट् निष्पाव रोटिका नवनीतं जानाति नवनीतं सर्वे जानन्ति पिष्टकम् इति अस्ति पिष्टकं मीन्स् जनरलि baked biscuits are kimapi the baked cake all these things are called cookies all are called pishtakam anantaram payohimam sarve jananti icchanti api chakaleha api jananti chayam coffee jananti takram green tea kim green tea chintayatu white tea green tea
haritachayam
haritachayam shunti chayam ginger tea anantaram takram takram aham uktavati dahi curd takram buttermilk narikela janam jananti duktam kshiram milk duktam kshiram bottle milk ha jalam jananti jambira rasaha jambira rasaha citrus fruit kimapi mosambi va lemon va orange sarvam jambira amra anantaram sheetapeyam any cool drink sheetapeyam म्यूट करोति वा कोऽपि अनन्तरं फलरसः एनी फ्रूट् जूस् कष्टं वा
महोदय वि मिस्ड् पृथुकं दट् लैन्
एवं वा एकनिमिषं पश्यामि कुत्र अरे अहं पृथुकम् एतत् अवलकी पफ्ड् रैस् पूपिका
पोहा
पोहा
परमान्नम् अत्र परमान्नं
कुत्र अस्ति
परमान्नं
पोहा नाम वा श्लोकं मध्ये वदतु
परमान्नं अत्र
परमान्नं परमान्नं जन
परमान्
परमान्
परमान्नं
परमान्नं
जनरली परम दट् इस् परम अन्नं परमान्नं द फुल् मील् जनरली परमान्नं बहु सन्तोषेण वदति परमान्नं खादितवान् द फुल् मील् grand meal.
There is a dish called paramannam here next to rasagolaka.
Next to rasagolaka.
Ek nimisham pashya.
It is
atah aham miskritavati agachami ekam. Poopika. Poopika is this puri. Atra jala poopika pani puri api asti. अनन्तरं लड्डुकं जानाति कुण्डलिनी जाङ्ग्री परमान्नं परमान्नम् इस् खीर् अत्र सामान्यतया परमान्नम् इति वदति चेत् इन् जनरल् उत्तम अन्नं खादितवान् इति अद्य अहं परमान्नं खादितवती मीन्स् ऐ हेड् आल् वेरैटीस् इट् वास् अ ग्राण्ड् मील् इन् जनरल् लैक् द हेपी फीलिङ्ग् परमान्नम्
बट् हियर् Here it is a sweet dish.
Yeah. Rasagola kaha. Rasagulla. Evam.
Gulab jamun, what we say?
Gola kaha. Rasagola kaha.
Bahut is samyavaha. Next to Rasagulla. Samyavaha.
Kutrasti. Rasagola kaha eva last. तत् अहम् उक्तवती खलु पुडिङ्ग् केसरि बात् दधिवाटकं तत् अभवत् ऐ मिस्ट् दिस् वन् पृथकम् ऐ मिस्ट् इट् अस्तु भोजनविषये वदतु
वाट् डिड् यु से फार् पक्ववाटकं
पक्व इन् कन्नडा इस् इट् सण्डिगे
पट्कवाटकं
भवत्याः भाषा किं भवत्याः मातृभाषा किं
तमिळ्
तमिळ् परिमार वयं परिवेषयामि, देट् इस् वेन् वि सर्व्. अहं वदामि अद्य भोजनविषयमेव स्वीकृतवन्तः, अतः तत् अपि अहं वदामि. वयं शिबिरे कुर्मः, यूश्वलि वि डू दिस् इन् शिबिरं वित् आक्षन्. अत्र किञ्चित् कठिनं, परन्तु ट्रै टु अण्डर्स्टाण्ड्. स्थालिका अस्ति, स्थालिका जानाति, प्लेट्. परिवेषणप्रकारः, द आर्डर् आफ् सर्विङ्ग्, परिवेषणव्यवकारः अथवा प्रकारः, हौ डु वि सर्व्. प्रथमं स्थालिका अस्ति, जलम् अस्ति, अनन्तरम् अन्नं स्थापयामः, अनन्तरं घृतं घी स्थापयामः, अनन्तरं एतत् किम् अहम् उक्तवती दाल् स्थापयामः, तत् अहं दृष्ट्वा वदामि, अहं विस्मृतवती. अनन्तरं अवले लवणं स्थापयामः, लवणं स्थापयामः. किमपि मधुरम् अस्ति चेत् तदैव, दो वि डोण्ट् डू इट् एव्री डे, बट् प्रकारः इति अस्ति, किञ्चित् मधुरं स्थापयामः, इट् इस् गुड् फार् डैजेशन्. सो फस्ट् इनिशियलि शर्करा वा कदलीफलं वा किमपि स्थापयामः. तत् अनन्तरं शाकं, किमपि शाकं स्थापयामः. अनन्तरं क्वथितं साम्बार्, क्वथितं स्थापयामः. क्वथितानन्तरं सारः, अनन्तरं सारः परिवेषणसमये अवलेहः वा पर्पटं वा दहि इद वडा दहिवाटकं वा किमपि एनि फ्रैड् ऐटम्स् वाटकं स्थापयामः. अनन्तरं मधुरं, पायसं मधुरं स्थापयामः. मधुरस्य अनन्तरं पुनः अन्नं, तक्रं वा दहि वा कर्ड् दधि वा तक्रं वा स्थापयामः. दधि एव दहि इति अभवत्, दधि वा तक्रं वा तत् अनन्तरम् अवलेहः, अवलेहः पिकल् उपचेषणं, चट्नि कर्ड् रैस् इदर् अवलेह अथवा उपचेषणं स्थापयन्ति. तदेव भोजनप्रकारः, कदा परिवेषणं कुर्मः इति. अस्तु वा, अस्तु गच्छामः.
वाट् इस् ओबेट्टु?
ओबेट्टु इस् अ कन्नड वर्ड्.
वाट् इस् दट् मा?
ईक्वल् मीनिङ्ग् पृच्छति वा? तस्य पोलिका एव संस्कृते पूरणपोलिका. किमपि पूरणं मीन्स् संथिङ्ग् इस् स्टफ्ड् इन् सैड्, पूरणपोलिका, पोलिका. तत् एक क्रीडा अपि वयं कुर्मः शिबिरे, पायसं पोलिका, पापडं पापटम् इति, पर्पटम् इति. अस्तु, अनन्तरं विभक्तिविषयं गच्छामः वा? इतोपि विभक्तिद्वयम् अस्ति खलु, तृतीया विभक्ति अस्ति, अनन्तरं चतुर्थी विभक्ति अस्ति, अन्यत् सर्वं वयं कृतवन्तः. विडिट् सप्तमी, षष्टि, द्वितीया अभवत्, पञ्चमी अपि अभवत्, ग्रामात् वृक्षतः गृहतः
अभवत्.
इदानीं तृतीया अस्ति, यु नीड् टु डु तृतीया अण्ड् चतुर्थी. अभ्यासपुस्तके तृतीया, वी हेव् नाट् येट् डन् इन् तृतीया, परन्तु अत्र अहं किञ्चित् वदामि, फ्रम् नेक्स्ट् वीक् वि विल् डू अभ्यासपुस्तकम् अगेन्. फस्ट् लेट्स् स्पेण्ड् हाफ् एन् अवर् फर् सम्भाषणं, देन् विल् डू अभ्यासपुस्तकं फ्रम् नेक्स्ट् वीक्. स्क्रीन् शेर् करोमि. एकनिमिषम् अहं प्रयत्नं करोमि. Are you able to see something?
No.
No,
no, no. No.
No. No.
अस्तु एकं कुर्वन्तु तदेव अहं मम फोन् मध्ये अस्मि न आगच्छति. तृतीया विभक्ति सीताशब्दं रामशब्दं यु केन् ओपन् इन् गूगल् ऐ हेव् सम् इश्यू ऐ कुड् नाट् शेर्
महोदय यु हेव् सेण्ट् आन्
वाट्सप् यु हेव् सेण्ट् आल्रेडी आन् वाट्सप्
या या
वी केन् यूस् दट्
प्रथमं पुल्लिङ्गशब्दं रामशब्दं तृतीया विभक्ति रामेण वयं प्रथमं एकवचनं मात्रं पश्यामः अनन्तरं द्वितीय द्विवचनं बहुवचनं पश्यामः. प्रथमं वि विल् ट्रै टु अण्डर्स्टाण्ड् ओन्ली एकवचनं फस्ट् रामेण इति अस्ति तत्र रामेण जनरलि तृतीया विभक्ति वयं सर्वदा सम्भाषणे उपयोगं कुर्मः. वि मोस्ट्लि यूस् तृतीया विभक्ति. अहं उदाहरणं वदामि चेत् अवगच्छति. यु विल् अण्डर्स्टाण्ड् हौ तत् जनरलि इन्स्ट्रुमेण्टल् केस् इन्स्ट्रुमेण्टल् इत्युक्ते आधारं किम् आधारविभक्ति इति आगच्छति. अहं मम नेत्रेण पश्यामि. अहं मम नेत्रमस्ति ऐ अहं मम नेत्रेण पश्यामि. हस्तेन लिखामि. पादेन चलामि. तत्र सर्वम् अहम् एकवचनम् उपयोगं करोमि. अहं जानामि एतत् सर्वं पादद्वयं नेत्रद्वयम् इति अहं जानामि. हस्तद्वयं तत्र द्विवचनमेव आगच्छति परन्तु अहं जानामि अहम् एकवचनमेव इदानीम् उपयोगं करोमि. पादेन चलामि. हस्तेन लिखामि. स्पून् खादामि. नेत्रेण पश्यामि. वाहनेन गच्छामि. वाहनेन गच्छामि. अजय् महोदय किञ्चित् म्यूट् करोति वा. वन्स् ऐ एक्स्प्लैन् देन् यु केन् गिव् एक्साम्पल्. वाहनेन गच्छामि इति तत्र इन्स्ट्रुमेण्ट् फर् द वर्क्. वयं कर्मपदं दृष्टवन्तः यदा कार्यं प्रचलति वन् द वर्क् गोस् कर्मपदं द्वितीया विभक्ति आगच्छति. अत्र तृतीया विभक्ति कार्यस्य आधारं किं. फार् एक्साम्पल् हस्तेन लिखामि. ऐ यूस् मै हेण्ड् फार् रैटिङ्ग्. सो हस्तः एव आधारं. हस्तः नास्ति चेत् अहं न लिखामि. चषकः अस्ति जलम् अस्ति. चषकेन जलं पिबामि इति तत्र सर्वदा आन् जेन्युन् कन्फ्यूषन् सप्तमी विभक्ति एण्ड् तृतीया विभक्ति. वेन् टु यूस् सप्तमी वेन् टु यूस् तृतीया इट्स् अ जेन्युन् कन्फ्यूषन् फार् एव्रि वन्. तृतीया वेन् संथिङ्ग् इस् आधारं देन् तृतीया आगच्छति. चषकेन जलं पिबामि. ऐ
महोदय
sent all the three pages on WhatsApp group.
Okay. Thank you.
So, instrument for the work what I am doing. I used only pulling a shabda idanim. Then we will use striling a shabda. Chashakena jalam pibami. Chashakena jalam pibami. Netrena duradarshanam pashyami. Mama netra asti. Upanetram asti. Specs. Upanetrena duradarshanam pashyami. एतत् तृतीया विभक्ति. एकमार्गं तृतीया विभक्ति. देर् इस् वन् मोर् वे टु यूस् वेन् गोयिङ्ग् वित् अलाङ्ग् वित् संथिङ्ग् आर् सम्वन् तत्रापि आगच्छति. सः रामेण सह लक्ष्मणः सीता च गतवन्तः. अनन्तरं तत्र मम मित्रेण सह अहम् आपणं गतवती. मित्रेण सह गतवती. मम पुत्रेण सह अहं भोजनं खादामि. अथवा मम पुत्रेण सह अहं पाकं पचामि. पुत्रेण सह पाकं पचामि. मम पुस्तकेन सह क्षम्यतां, तत्र सः न आगच्छति, पुस्तकेन सह नास्ति, पुस्तकं नयामि एव, क्षम्यतां, विस्मरतु. सः सर्वदा अलाङ्ग् वित्, तत्रापि यदा अलाङ्ग् वित् उपयोगं करोति तृतीया विभक्ति एव आगच्छति. दिस् इस् सेकेण्ड् रूल्. तृतीयं, यदा एमोशन्स् आगच्छति, अहं सन्तोषेण संस्कृतं पठामि, अनिता दुःखेन गृहपाठं करोति, होम्वर्क् दुःखेन करोति, भवन्तः आनन्देन वर्गम् आगच्छन्तु, एवं यदा एमोशन्स् आगच्छति तत्रापि तृतीया विभक्ति एव आगच्छति. त्री रूल्स्. एकम् आधारं, द्वितीयम् अलाङ्ग् वित् सह, इति तृतीयम् एमोशन्स्. किमपि उदाहरणं वदति वा? पुल्लिङ्गशब्दमात्रम् उपयोगं करोतु. एनी डौट्स् अथवा उदाहरणं?
अहं लेखिन्या लिखामि
उपयोगं कुर्वन्तु पुल्लिङ्गशब्दमात्रं.
महोदय, अहं गर्वेण क्वथितं परिवेशयामि. दर्वेण क्वथितं परिवेशयामि.
तदेव दर्वि स्त्रीलिङ्गम् इदानीं न कुर्मः, प्रथमपुल्लिङ्गं तदेव सुलभं. पुल्लिङ्गम् अनन्तरं दर्वी स्त्रीलिङ्गं.
आम्
महोदय, बालः वानरेण क्रीडति.
वानरेण सह क्रीडति.
अहं चमसेन अन्नं खादामि.
सोपानेन आरोहयामि.
सोपानेन
आरोहयामि.
You climb with the ladder. ओ तत्र सोपानं यूश्लि स्टेप्. अस्तु, हा ल्याडर् इति वदति चेत् सम्यक् एव. तत्र सोपाने आरूढामि. ऐ क्लैम् इन् द ल्याडर्.
इन् द ल्याडर् सोपाने सप्तमी.
There's always a confusion between Saptami and Tritiya. Welcome. Where to use Saptami? It's a genuine confusion.
Sopane Arudhami. That means I am climbing the steps, it means.
Can you tell us how there is confusion? Because that is a, Saptami is a location and a time. It shows the location and time.
अहं सोपाने आरूढामि. इदानीं नौ ऐ एम् इन् द स्टेप्. वाट् ऐ यूस्, मम पादेन सोपाने आरूढामि. ऐ यूस् मै लेग्स्. तत्र इन्स्ट्रुमेण्ट् किं? मम पादः एव. सो वयम् इदानीम् इन्स्ट्रुमेण्ट् एव पश्यामः. हरि ओम्, श्रूयते वा?
भगिनी, हौ केन् वि गेट् कन्फ्यूस्ड् वित् सप्तमी अण्ड् तृतीया? केन् यु गिव् एन् एक्साम्पल्?
if you don't, if you are, if you didn't get confused, then it's okay, leave it. That's an extra point. Idanim prithya matram vadatu aham correction karomi yada agachati tad. I don't want to confuse unnecessarily others.
Mahodaya
bhavati vakyam vadatu correction karomi. But
so padena bhramanam karomi.
Aham padena bhramanam karomi.
Mahodaya, I have a doubt, we box with two legs, you know, two legs, netrena, two eyes, we see with two eyes, but bahuvachanam will not come.
That's what I cleared first in the beginning itself. I know if two legs, two eyes, it should be dvivachanam, not bahuvachanam. Padabhyam iti agachati astabhyam nekrabhyam. But we are not here ekavachana mindset, it is wrong. For practice, we use katam ekavachana mindset. That is the case in the Sibiram. The beginning, we don't use the dvivachana. Atra dvivachana meva. Yada pravesha patati tatra vayam correction kurmaha. Padena nakam padabhyam. So understand where to use.
Ma'am, we can't hear you.
Your
voice is not clear. Ashvena gachati. Is it right?
Ashvena sah gachati. Ashvena
sah gachati.
Akurena sah. श्रीकृष्णः मथुरां गच्छति.
हां सम्यक्.
भगिनी, I have a question.
If we say padabhyam, can we also say netrabhyam? Vashyami, not netrena?
Now upayogam kurmaha. Netrena ekavachanam upayogam kurmaha. Now we use only it. Don't worry about it.
Okay.
The first step, we should understand where we have to use which vibhakti. Then we will worry about ekavachana vachanam, dvivachanam, bahuvachanam. First, we will know the usage of vibhaktis.
Mahodaya.
Janakaha hastena tadayati.
Hastena tadayati.
Mahodaya, if I want to say I am making buttermilk takram with manthanaha, how do I say?
Mantani. Tatra, aham mantanam upayogam karomi api samyak. Dvitiya api.
Okay, but if I have to use tritiya vibhakti, can we use that?
Mantanena takram karomi.
Okay.
Siddham karomi. Siddham karomi.
Okay.
Mantanena. Vahanena gachami samana.
Okay.
Chamasena khadami.
Thank you.
Anantaram. Prashnamba?
Kridakaha.
Any doubt?
Kridakaha kantukena kridati.
Kridakaha.
कृष्णः वेणुनेन हौ हि केन् प्ले म्यूसिक्
यदा उपकारान्
ऐ केनाट् हियर् यु भगिनी
some disturbance
can you all be on mute except the one who is asking Ajay mahodaya can you mute okay I'll mute ha idani shrete va bagini is it clear now
yeah am bagini
vadatu venu iti agachati kalo ramah akaranta shabdah the last ending is akaranta venu is ukaranta padam अतः किञ्चित् भेदम् अस्ति वेणुना इति आगच्छति तत् सर्वं वयं प्रवेश नेक्स्ट् लेवल् मध्ये पठामः इदानीं वेणुना इति स्वीकरोतु अनन्तरं
अभ्यासपुस्तकम् एतस्य कोष्टकस्य आधारेण 10 वाक्यानि लिखतु आधारेण सप्तमी विभक्ति
न आधारेण तृतीया विभक्ति सम्यक् एतस्य पुस्तकेन आधारेण सम्यक् पुस्तकस्य आधारेण सम्यक्
आधारेण द्वितीया विभक्ति
तृतीया विभक्ति आधारेण रामेण
तृतीया
सम्यक्
कोपेन पिता पुत्रं ताडयति
करेक्ट् कोपेन ताडयति
भीमः वृक्षेण ताडयति
सम्यक् वृक्षेण ताडयति
मिश्रकमेन चट्नि करोमि
मिश्रकेन उपचेषः करोमि मिश्रकेन
ओ न मिश्रकमेन
मिक्स् तत्र यदा नपुंसलिङ्गम् आगच्छति द लास्ट् इन् विल् गो
ओके मिश्रकेन
मिश्रकेन
मिश्रकेन हौ डु से चट्नि
उपचेषः
उपचेषः करो
नृपः न राजा
गजेन आगच्छति
नृपः सेवकेन गच्छति
सेवकेन सह गच्छति अलाङ्ग् वित् अनन्तरं अनन्तरं
भगिनी
दीपं विद्युतं ज्वलति
विद्युतेन ज्वलति
विद्युतेन ज्वलति
तत्रापि विद्युत् इति हलन्तप्रयोगः तैलेन ज्वलति विद्युत् भिन्नशब्दः तैलेन इति वदामः विद्युत् इति भिन्नशब्दः अनन्तरं
बालकः मुखेन खादति मुखेन
सर्वे मुखेन एव खादामः
सर्वे मुखेन
खादामः दन्तः अस्ति वयं सर्वे दन्तेन खादामः अपि सम्यक् अस्तु अनन्तरं सीताशब्दं पश्यामः वा वदतु भगिनि
अहं कष्टेन विभक्ति पठामि
वाक्यार्थं सम्यक् परन्तु किमर्थं कष्टम् we are very comfortably going like every week one vibhakti we are reviewing. So sulabhena patamaha iti vadatu.
Okay.
किम् इत्युक्ते अत्र वयं शिबिरे प्रतिदिनम् एक विभक्ति एव्री डे वि रीड् वन् वन् विभक्ति इट् विल् बि लिटल् हेवि टु डैजेस्ट् बट् हियर् वि हेव् वन् वीक् टैम् टु रीड् वन् विभक्ति टु अण्डर्स्टाण्ड् अण्ड् मेकिङ्ग् सेण्टेन्सस् वित् वन् विभक्ति सो अतः बहु कठिनं नास्ति इति अहं चिन्तयामि. अस्तु, चिन्ता मास्तु. इदानीं स्त्रीलिङ्गं वदामः. तत्र स्त्रीलिङ्गमध्ये सीता इति आकारान्तप्रयोगः अस्ति, अनन्तरम् ईकारान्तप्रयोगः अपि अस्ति. प्रथमम् अहम् आकारान्तप्रयोगं वदामि. सीतया इति अस्ति, सीता, दट् आ विल् गो एण्ड् अया विल् कम्, आ विल् गो, सो देन् सीत् विल् बि देर्, सो विल् एड् अया, अया विल् बि देर्, सीतया. यदा ईकारान्तपदम् आगच्छति तत्र ई लास्ट् ई विल् गो, पार्वती अस्ति, तत्र ई विल् गो ईकारान्तः, एण्ड् पार्वत् इत् विल् बि देर्, द हलन्त् विल् बि देर्. कूपी अस्ति, तत्र ई विल् गो, कूपी, इप् प्लस् ई, तत्र इप् तिष्ठति, ती गच्छति, कूप्या इति आगच्छति, सीतया इति आगच्छति, मालया, शालया, नासिकया, नासिकया जिग्रोमि, ऐ स्मेल् वित् मै नोस्, नासिकया जिग्रोमि. द्विचक्रिकया, बैक्, टु वीलर्, द्विचक्रिकया गमिष्यामि अथवा गच्छामि, द्विचक्रिकया गच्छामि. लेखनी, भगिनी उक्तवती लेखन्या लिखामि, लेखनी अस्ति, अत्र लेखन्या लिखामि. अनन्तरं दर्वी, तदपि रमा भगिनी उक्तवती, दर्वी स्त्रीलिङ्गप्रयोगं, दर्भ्या परिवेषणं करोमि, दर्भ्या. स्थालिकया खादामि, चमसेनापि खादामि परन्तु स्थालिकापि आधारं, स्थालिकया खादामि. कूप्या जलं, कूपि अस्ति, कूप्या जलं पिबामि, चषकेन पुलिङ्गं, चषकेन जलं पिबामि, कूप्या वित् बाटल्, ऐ ड्रिङ्क् वित् द बाटल्, कूप्या जलं पिबामि इति स्त्रीलिङ्गप्रयोगः. इदानीं वदति वा वाक्यानि, गाट् इट्? स्त्रीलिङ्गं
पुनरेकवारं वदतु महोदय.
पश्यतु, सीतया अहं पार्वती इति पार्वत्या इति आगच्छति, सीता सीतया इति आगच्छति. अत्र अहं वदामि सीतया सह, सीतया सह रामः लक्ष्मणः च गतवन्तः, तपि सम्यक्. अनन्तरं चषकेन जलं पिबामि, तत्र कूपी अस्ति, वाटर् बाटल्, कूप्या जलं पिबामि. लेखन्या लिखा, हस्तेन लिखामि, ऐ यूस् मै हेण्ड् टु रैट् बट् ऐ केनाट् रैट् वित् जस्ट् प्लेन् हेण्ड्. लेखन्या लिखामि, ऐ यूस् लेखनी टु रैट्. अङ्कन्या वित् पेन्सिल्, अङ्कन्या चित्रं रचयामि, लेखनी, अङ्कनी, न्या, न्या इति आगच्छति, लेखन्या, अङ्कन्या. पार्वत्या सह गणेशः गतवान्. अनन्तरम् अहं मम पुत्र्याः सह गतवती, पुत्र्याः सह, अथवा अहं मम अम्बायाः सह गतवती, अम्बा मदर्, अम्बायाः सह गतवती. सखी, अहं मम सख्याः सह भोजनं खादितवती, सख्याः सह, अलाङ्ग् वित् मै फ्रेण्ड्. द्विचक्रिकया आपणं गतवती, ऐ यूस् मै टू वीलर्, द्विचक्रिकया गतवती. स्पष्टं वा? तृतीया किञ्चित् यु नीड् टु रिमूव् द लास्ट् आर् इ एण्ड् देन् यूस् ओन्लि द हलन् शब्दं प्लस् अया. तत्र पश्यतु, इदानीं वदामि, पुनः पश्यतु, तृतीयाविभक्तिमध्ये सीतया इति अस्ति खलु, इन् तृतीया सीतया, सप्तमे पश्यतु सीतायां, almost similar. When you, if you don't pronounce it properly, it looks like Sitaya Sitayam. Kupya Jalam Pibami, Kupyam Jalam Asti. The water is inside the bottle, in the bottle. Saptami Vibhakti. Kupyam Jalam Asti. I use my bottle to drink. Kupya Jalam Pibami. Spashtam va?
Gatya. Nadi, Nadya.
Nadya. Gatya, samayam pashyami.
Nadya, snanam, karomi.
Tatra kashito, it is in right. Nadyam snanam karomi, saptami eva agachati.
Mahodaya?
Yada vadati, jalena snanam karomi samyak. I use the water to take bath, parantu I cannot use the whole nadi to take bath. I have to go and take bath there. Nadyam snanam karomi. Parantu jalena snanam karomi samyak.
महोदय, can we say बालिका पञ्चालिकाया सह खेलति? How do you say?
पञ्चालिकाया सह क्रीडति. बालिका पञ्चालिकाया सह क्रीडति.
अहं मालाय सह पाठशालां गच्छामि.
Dirga will become Hrastva here.
Mahodaya, so when we say, when we use it with Darvi, we remove the E and then put the Aya completely, so the Ya will be full Ya?
No, no.
Darvaya.
Darvya.
Darvya. What makes E? Va means Iva plus E. It is not Va plus E. Va is A.
Okay.
So, is it the same? If it ends with E or E, it is the same, no?
Atata anantaram pashyamaha. Hikaranta shabdaha anantaram pashyamaha. Hikaranta shabdaha anantaram pashyamaha. Idanim ikaranta eva. Parantu samanam eva. Mati matya eva agachati.
Anguli will come, Mahodaya. Anguli.
Angulya. Angulya darshayati. Adhyapika. Angulya darshayati. She shows with the finger. Anguli, angulya.
Dinadashitaya dinam janami.
Dinadarshikaya dinam janami. Gatya samayam pashyami. Anantaram?
Mahodaya, केन् यू से मापिका स मापिकाया सह मापणं करोमि
मापिकया सह मार्जनं करोमि
मार्जनं
तत्र सः not come for everything. Saha usually the meaning of along.
Yes, sorry, no Saha. Mapikaya.
Generally a person goes to come with you.
Yes.
In those cases along will come. Otherwise, Mapikaya Marjanam Karam.
Marjanam.
Marjanam. Marjaya.
Mahode, Sammarjini will come. Sammarjini.
Sammarjini.
शुद्धं करोमि
अस्तु एतत् तृतीया विभक्ति किञ्चित् ऐ डोण्ट् से इट् इस् वेरि ईसि परन्तु anantaram maybe in the coming week we will see in the abhyasa pustaka examples punah patamaha janim I just told you orally pustakam pustakena patamaha pustakena saha patamaha pustake atra
kripya apya griha padam dadatu mahodaya so that we can practice and check the answers
kim vishayam ichati अहमेव वदामि वा विभक्तिप्रयोगं लिखति वा सम्भाषणे प्रथमं सुलभविभक्तिं कुर्मः षष्ठी द्वितीया पञ्चमी स्पष्टमिति मन्ये दोस् त्री आर् वेरि ईज़ी नो द्वितीया षष्ठी
पञ्चमी
ऐ विल् हेल्प्
Mahode, you are not clear.
Yeah, your voice not clear, Mahode.
Okay. Dvitiya, Panchami, Shashti, Vibhakti Prayogah. Kima pi vishyam? Any, you can take any sentence. Parantu, Dvitiya, Shashti, Saptami, Vibhakti Upayogam Karotu. Sridinga, Pulinga, Napunstakalingam, Madhye. एतत् यदा अहं नपुंसकलिङ्गम् इति वदामि इट् इस् सेम् लैक् सिमिलर् टु पुल्लिङ्गशब्दमेव सो द्वितीया षष्टि सप्तमी पुल्लिङ्ग स्त्रीलिङ्गं शब्दम् उपयुज्य वाक्यं रचयन्तु तत्र इतोपि एकं कालः सम्यक् निर्धारं करोतु ऐ थिङ्क् टुडे वि डिस्कस्ड् वाट् टेन्स् टु यूस् वेर् तत् सम्यक् उपयोगं कुर्वन्तु यदा भविष्यत् इति वदति करिष्यति करिष्यामि एवं भूतकाले गतवती गतवान् इति भूतकालप्रयोगः प्रतिदिनस्य विषयम् अथवा इदानीम् अहं करोमि एवं वदति चेत् प्रसेण्टेन्स् किञ्चित् शुद्धतया शुद्धं कृत्वा लिखन्तु अस्तु वा एकवचनं बहुवचनमपि प्रापर्लि टेन्सस् आम् एकवचनं बहुवचनं एण्ड् आल् त्री द्वितीया पञ्चमी षष्टी तत्र द्वितीया पञ्च ट्रै टु यूस् दिस् विभक्ति एण्ड् इन् द्वितीया एण्ड् पञ्चमी सर्वलिङ्गं समानं सर्वान् लिङ्गं समानमेव ओन्लि षष्टी एतस्य एतस्याः इति अपि रिमेम्बर् द्वितीया अण्ड् पञ्चमी आल् जेण्डर्स् आर् सेफ् वण्डि षष्टि वि हाव् जेण्डर् डिफ़रेन्स् अस्तु वा वाक्यानि रचयन्तु सर्वे भवन्तु वदामः वा सर्वे
भवन्तु पुनः सर्वे भद्राणि
सर्वे सन्तु निरामयाः
सर्वे भद्राणि
पश्यन्तु
ॐ शान्ति
शान्ति
धन्यवादः, धन्यवादः,
धन्यवादः.